गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र समवायिकारणं समवायिकारणस्य विषये वयं पूर्वमपि पठितवन्तः किन्तु अत्र तत्र नूतनविषयस्य आरम्भे एतस्य सम्यक् अवगमनम् आवश्यकम् इति कृत्वा तस्य निरूपणम् अभवत् इदानीं तत्र उदाहरणं पश्यामः तत्र रूपं घटे वर्तते इति तर्हि तत्र अस्तु तत्र योगेन्द्रमहोदय रूपं घटे वर्तते तत्र रूपमपि घटः तयोः मध्ये कार्यकारणभावः अस्ति वा
कार्यकारणभावः अस्ति इति
तर्हि तत्र नाम तत्र रक्तवर्णघटः इति चिन्तयन्तु तर्हि रक्तरूपं घटे अस्ति तर्हि तत्र किञ्चित् विवृणोतु महोदय तत्र यत्र कारणं कार्यमस्ति तत्र निकषत्रयम् अस्ति खलु तत्र किं किम् इति वदति वा एकवारं
घटः कारणमस्ति रक्तवर्णं कार्यमस्ति
अस्तु समीचीनम् अस्तु अस्तु अपि अधिकरणं किम् अस्ति
अधिकरणं घटः अस्ति
घटः अस्ति समीचीनम् अस्तु इदानीं तत्र कार्यं कारणं तत्र तयोः कीदृशसम्बन्धः भवेत्
घटः अधिकरणे तादात्म्यसम्बन्धेन
अस्ति
अस्ति रूपं घटे समवायिसम्बन्धेन अस्ति
अस्ति समीचीनं महोदय तर्हि तत्र उत्तमं महोदय तर्हि अत्र किं किम् अस्ति इत्युक्ते तत्र तत्र कार्यं रूपम् अपि एकमेकं वदतु तर्हि अत्र कार्यमस्ति
कार्यमस्ति रूपं
कारणमस्ति
कारणमस्ति घटः
घटः अस्तु
अधिकरणमस्ति घटः
घटः अपि अत्र घटः स्वस्मिन् केन सम्बन्धेन अस्ति
तादात्म्यसम्बन्धेन
तादात्म्यसम्बन्धेन रूपमपि रूपम् अधिकरणे
समवायसम्बन्धेन अस्ति
समवायसम्बन्धेन अस्ति उत्तमं महोदय धन्यवादः अस्तु इदानीम् अग्रे धन्यवादः महोदय पद्मभगिनी नमस्कारः इदानीं तत्र नमस्कारः भगिनि
अद्य अहं किञ्चित् केवलं शृणोमि जि
अस्तु भगिनि अस्तु 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 चिन्ता मास्तु समीचीनम् अस्तु अस्तु इदानीं तत्र अग्रे उषा भगिनी तत्र पटः तन्तुः तत्र तयोः मध्ये कार्यकारणभावः अस्ति वा
आं महोदय कार्यकारणभावः अस्ति
तर्हि वदतु तत्र कार्यं किं कारणं किम्
पटः कार्यं तन्तुः
कार्यं
तन्तुः कारणम् अत्र
अधिकरणम्
अवयवी अवयवः अस्ति पटः तन्तोः कृते अवयवी अवयवः सन्ति तयोः मध्ये समवायि
तर्हि अधिकरणं किम् अस्ति
अधिकरणं तन्तुः
तन्तुः समीचीनम् अस्तु तन्तुः स्वस्मिन् केन सम्बन्धेन अस्ति
तादात्म्यसम्बन्धेन अस्ति
तादात्म्यसम्बन्धेन
अस्ति पटः समवायिसम्बन्धेन तन्तवे
तन्तौ
तन्तौ
तन्तौ अस्ति समीचीनं तत्र अवयवी अवयविनोः मध्ये समवायसम्बन्धः पूर्वस्मिन् उदाहरणे तत्र गुणद्रव्ययोः मध्ये समवाय तत्र आश्रये समवायसम्बन्धेन
समवायसम्बन्धेन
अस्ति इति समीचीनं भगिनि. हा अस्तु उत्तमम्. अग्रे तर्हि विमला भगिनी नमस्कारः. पुष्पा भगिनी नमस्कारः.
नमस्कारः महोदय. अहं कार्याने अस्मि, किञ्चित् समयं श्रोष्यामि.
अस्तु अस्तु भगिनि,
धन्यवादः.
हा अस्तु अग्रे नरसिंहहेगडे महोदय. इदानीं तत्र क्रियाकन्दुकम्
अत्रापि कार्यकारणभावः अस्ति महोदय. क्रिया इति कार्यमस्ति, कन्दुकम् इति कारणमस्ति.
अस्तु
समयसम्बन्धः अस्ति द्वयोर्मध्ये. कन्दुकं तदात्मसम्बन्धे स्वस्मिन् स्वस्मिन् तिष्ठति, तत् क्रियां जनयति समवायेन.
तत्र किमर्थं तत्र समवायसम्बन्धः अस्ति अत्र अत्र
अत्र क्रियाक्रियावतोः मध्ये
मध्ये समयसम्बन्धः. उत्तमं महोदय, अस्तु समीचीनं. अस्तु समीचीनं, धन्यवादः. अस्तु चन्द्रमती भगिनी, इदानीं तत्र तत्र नमस्कारसमये तत्र हस्तस्य हस्तयोः संयोगः भवति, तर्हि संयोगः इति अस्ति, संयोगः कीदृशपदार्थः?
गुणः.
समीचीनं, संयोगः गुणः अस्ति. तर्हि तत्र संयोगः अपि हस्तः, तत्र कार्यकारणभावः अस्ति वा?
अस्ति गुणद्रव्ययोः.
हा गुणद्रव्ययोः मध्ये समीचीनं भगिनि. अस्तु अस्तु, हा तर्हि हस्तः अस्तु तयोः मध्ये. अत्र संयोगः केन सम्बन्धेन हस्ते अस्ति?
समवायसम्बन्धेन.
हस्तः स्वस्मिन्
तादात्म्यसम्बन्धेन.
तादात्म्यसम्बन्धेन, अस्तु समीचीनं. हा अस्तु इदानीं समीचीनं भगिनि, धन्यवादः. इदानीम् अग्रे मृणालिनी भगिनी, इदानीं प्रथम उदाहरणं पश्यामः. तत्र अस्माकं वाक्यमासीत् नाम तत्र यत्र अस्मिन् सन्दर्भे तत्र अस्मिन् उदाहरणे तत्र घटः किं भवति, रूपस्य कारणं कीदृशं कारणं भवति घटः?
स्वसमवायिसंयुक्त.
न न न, घटः कीदृशकारणं भवति रूपस्य? तत्र समवायिकारणं वा असमवायिकारणं वा निमित्तकारणं वा किम्?
असमवायकारणं.
न न न, पुनः तत्र भगिनी किञ्चित् पश्यतु, तत्र अस्मिन्नेव तत्र
खलु रूपस्य कृते घटः. आचार्य प्रश्नः न अवगतः.
नाम तत्र नाम कीदृशं कारणम् अस्ति इति तत्र तत्र
गुणगुणिनोः.
न न न, हा हा गुणगुणिनोः अस्तु. तर्हि तत्र सप्त अशीतितमे पुटे तत्र नास्ति, किन्तु हा कुत्र अस्ति? न न क्षम्यतां, हा न न तत्र षड् अशीतितमे पुटे
कस्मिन्
षडशीति हा हा अधोभागे चित्रमस्ति खलु.
रूपस्य क्रियायाश्च समवाय उत्पत्तिः कपालरूपे द्रव्ये घटरूपद्रव्ये कन्दुकरूपद्रव्ये एव च भवतीति सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम्.
अस्तु, तर्हि तत्र समवायसम्बन्धः अस्मिन् उदाहरणे अपि अस्ति खलु?
आम्
आम्, समीचीनम्. अस्तु इदानीम् अग्रिमे पुटे पश्यतु, प्रथमपरिच्छेदः अन्तिमवाक्यं
अन्तिमवाक्यं
प्रथमपरिच्छेदस्य
आम् इदं च कपालघटादि यत् स्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायिनकार्यं जनयति तत् समवायिकारणमिति उच्यते
तद् अत्र घटते वा
आं समवायिकारणमिति
किम् अस्ति कारणं समवायिकारणं कस्य अस्मिन् उदाहरणे अस्तु अस्तु अन्य कोऽपि सहायं कुर्यात् अशोक् महोदय किञ्चित् सहं किञ्चित् वदतु महोदय अत्र स्थितिः का इति
रूपं घटे अस्ति समवायसम्बन्धेन कारणम् अपि अस्ति अतः समवायिकारणम् इति चिन्तयामि
हा समीचीनं महोदय इदानीं तत्र अन्तिमवाक्यं यत् तत्र मृणाली भगिनी पठितवती तत्र सप्त अशीतितमे पुटे प्रथमपरिच्छेदे अन्तिमवाक्यम् इदं च इति तत्र यत् इति आरभ्य यत् स्वस्मिन् इति एकवारं दर्शयामि वा प्रायशः अत्र महोदय अत्र अत्र एकनिमिषः अत्र
यत् स्वस्मिन् तादात्म्यने
तादात्म्येन सम्बन्धेन
स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणम् इति उच्यते अस्तु
स्वस्मिन् केन सम्बन्धेन स्थित्वा
तादात्म्येन सम्बन्धेन
अपि कार्यं केन सम्बन्धेन जनयति
समवायसम्बन्धेन
समवायसम्बन्धेन जनयति इति अस्तु तर्हि तत्र
यदि कार्यम् अधिकरणम् अपि अस्ति तर्हि सदा तादात्म्यसम्बन्धेन तस्मिन्
अस्ति समीचीनं महोदय समीचीनं तर्हि अत्र घटः इति कारणम् अस्ति कार्यमस्ति
घटः कारणम् अस्ति रूपं कार्यमस्ति रूपं समवायसम्बन्धेन कार्यमस्ति
घटे अस्ति अधिकरणे अस्ति अधिकरणे
अधिकरणे अस्ति अतः अधिकरणं स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति अतः घटः
महोदय तत्र सत्यमेव किन्तु तत्र अंशत्रयम् इति सदा चिन्तनम् अस्माकं नाम कारणमस्ति कार्यमस्ति यत्र कारणं कार्यमस्ति तादृशसम्बन्धः अस्ति तयोः सामानाधिकरण्यं भवेत् तर्हि तृतीय अंशः भवति अधिकरणम् अतः तत्र कारणम् अधिकरणे अत्र केन सम्बन्धेन अस्ति कारणम् अधिकरणे
तादात्म्यसम्बन्धेन
तादात्म्यसम्बन्धेन स्थित्वा तर्हि घटः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा किं समवायसम्बन्धेन जनयति
रूपं
समवायसम्बन्धेन रूपं जनयति इति कृत्वा तत्र न्यायशास्त्रवाक्यं तादृशवाक्यम् अस्मा तस्य प्रयोगः यदि भवति चेत् मनसि सम्यक् भवति अतः पुनः एकवारं महोदय तत्र घटः इति कारणं घटः स्वस्मिन्
घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति
स्थित्वा
रूपं समवायसम्बन्धेन जनयति
जनयति अतः घटः रूपस्य समवायी कारणम् तत्र अन्यानि उदाहरणानि अपि एतेन रूपेण कृत्वा तदनन्तरं तत्र अवच्छेदकभावः यत् अवच्छेदकः कः इति तदपि पश्यामः अस्तु धन्यवादः महोदय इदानीम् अग्रे तत्र हा तर्हि तत्र योगेन्द्रमहोदय इदानीं तत्र द्वितीय उदाहरणे पटः तन्तुः तन्तुः तर्हि तत्र तन्तुः कीदृशकारणमस्ति अपि न्यायशास्त्रवाक्यं वदतु यथा अशोकमहोदयेन उक्तम्
पटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति तन्तुः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति
स्थित्वा समीचीनं
स्थित्वा समवायेन तन्तु पटः उत्पादयति पटम् उत्पादयति
अतः तन्तुः
पटस्य
कारणं तत्र
स्वसमवायिकारणम् अस्ति प्रायः
समवायिकरणं स्व इति नास्ति समवायिकारणं
स्वसमवायिकारणं
न न स्व नास्ति महोदय केवलं समवायिकारणं
समवायिकारणं
पुनः एकवारं वाक्यं वदतु महोदय तन्तुः स्वस्मिन् इति आरभ्य
तन्तुः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन पटम् उत्पादयति
अतः
तन्तुः पटस्य समवायिकारणम्
हा उत्तमं महोदय अस्तु समीचीनम् अस्तु इदानीम् अग्रे उषा भगिनी इदानीं तत्र क्रिया अपि कन्दुकम् इति उदाहरणं
महोदय कन्दुकं स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन क्रियां जनयति अतः कन्दुकं समवायिकारणम् इति अस्ति
कस्य कस्याः
क्रियायाः क्रियायाः समवायिकारणं कन्दुकम्
उत्तमं कन्दुकम् अस्ति समीचीनं भगिनि धन्यवादः अस्तु इदानीं तत्र नरसिंहड्डे महोदय इदानीं तत्र संयोगः हस्तः
हस्तः स्वस्मिन् तदात्र सम्बन्धेन स्थित्वा संयोगं जनयति तत्र समवायकारणं
हस्तः
स्वस्मिन् तादात्मसम्बन्धेन स्थित्वा संयोग जनयति
न सत्यं महोदय समीचीनतया उक्तम् द्वितीयवाक्यम् अतः हस्तः
संयोगस्य समवायिकारणम्
इति एव तावदेव समीचीनं महोदय अस्तु धन्यवादः इदानीम् अग्रे तत्र चन्द्रमती भगिनी इदानीं तत्र क्रिया अपि बालकः इति अस्ति चेत्
क्रिया बालकः कारणम् अस्ति क्रिया कार्यम् अस्ति बालकः बालके तादात्म्यसम्बन्धेन स्थित्वा क्रियां समवायसम्बन्धेन जनयति
अतः बालकः
समवायिकारणं क्रिया
क्रियायाः
समवायिकारणम्
उत्तमं भगिनि अस्तु इदानीं मृणालिनी भगिनी इदानीं तत्र रूपं घटः इति उदाहरणम् इदानीं वदतु वाक्यं किमस्ति
घटः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन रूपं जनयति अतः समवायिकारणं रूपस्य कृते
घटः
समवायिकारणं
रूपस्य समवायिकारणम् उत्तमं भगिनि हा समीचीनं खलु इदानीं मनसि अस्ति खलु अस्तु उत्तमम् अस्तु हा इदानीं तत्र वयं तत्र अवच्छेद्य अवच्छेदकभावः अपि तत्र कः अवच्छेदकः इति अपि चिन्तयामः तर्हि तत्र अत्र यत्र कार्यता तत्र इदानीं पुनः तत्र हा अस्तु अशोकमहोदय इदानीं तत्र अस्मिन् उदाहरणे कार्यता कुत्र अस्ति कारणता कुत्र अस्ति
कार्यता रूपे अस्ति कारणता घटे अस्ति
हा अपि तयोः मध्ये कीदृशभावः
कार्यता निरूपितकारणं
कारणता हा नाम तयोः मध्ये निरूप्यनिरूपकभावः समीचीनं हा निरूप्यनिरूपकभावः अस्ति समीचीनम् अस्तु इदानीं धन्यवादः महोदय अग्रे तत्र योगेन्द्रमहोदय इदानीं तत्र तत्र सर्वत्र तत्र इदानीम् उदाहरणे तत्र उदाहरणचतुष्टयम् अस्ति कार्यता कुत्र कुत्र अस्ति इति वदतु महोदय योगेन्द्रमहोदय
कार्यता कार्ये अस्ति रूपे अस्ति पटे अस्ति क्रियायाम् अस्ति संयोगे अस्ति
संयोगे अस्ति अस्तु समीचीनम् उषा भगिनी कारणता कुत्र कुत्र अस्ति
महोदय कारणता घटे अस्ति कारणता तन्तवः तन्तौ अस्ति कारणता अपि कन्दुके अपि अस्ति अपि च हस्ते अपि अस्ति
हस्ते अपि अस्ति समीचीनम् अस्तु पुष्पा भगिनी वक्तुम् इच्छति वा अथवा केवलं शृणोति वा अस्तु
आं महोदय
अस्तु इदानीं तत्र हा पुनः भवती वदतु तत्र अस्मिन् उदाहरणे कार्यता कुत्र अस्ति कारणता कुत्र अस्ति
कार्यता संयोगे
संयोगे अस्ति
संयोगे
कारणता
हस्ते अस्ति
हस्ते अस्ति उत्तमं भगिनि अस्तु समीचीनं हा अस्तु इदानीं नरसिंह हेगडे महोदय इदानीं तत्र अत्र सम्बन्धः अस्ति तत्र समवायसम्बन्धः कार्यता रूपे अस्ति तयोः मध्ये तत्र कः सम्बन्धः नाम
कयोः मध्ये महोदय
हा पुनः एकवारं वदामि
कयोः मध्ये
तत्र हा नाम रूपम् इति अस्ति रूपे कार्यता अस्ति
कार्यकारणभावसम्बन्धः
इति पूर्वं दृष्टं नाम तत्र रूपे कार्यता अस्ति घटे कारणता अस्ति इदानीं रूपे कार्यता अस्ति अपि तत्र रूपम् अधिकरणे समवायसम्बन्धेन अस्ति इति कृत्वा रूपे समवायसम्बन्धः अपि वर्तते खलु
आं समवायसम्बन्धः अपि वर्तते आम्
नाम समवाय अपि अस्ति तर्हि तत्र एषः सम्बन्धः तत्र कार्यतायाः कृते तत्र किं करोति किं कार्यं करोति तत्र कार्य
अवच्छेदकसम्बन्धः
हा अवच्छेदकः अस्ति हा समीचीनं तर्हि तत्र इदानीं तत्र यदि वयं वदामः तत्र कार्य तत्र यदि इदानीं लिखामः तर्हि रूपम् इति तर्हि रूपे तत्र कार्यता अस्ति अपि तत्र समवायसम्बन्धः इति अपि अस्ति तर्हि तयोः मध्ये तत्र एकनिमिषं महोदय किञ्चित् अधोभागे लिखामि हा अस्तु इदानीं तयोः मध्ये तत्र कः इदानीं कार्यता समवायः तर्हि कार्यता अपि समवायः कः अवच्छेदकः कः अवच्छेद्यः
रूपमिति कार्यता अवच्छेदकः सम्बन्ध
नाम
घट इति कारणता अवच्छेदकः
आमां किन्तु तत्र रूपे कार्यता अपि अस्ति समवायः अपि अस्ति इदानीं तत्र कस्य अवच्छेदकः कः अस्ति इति प्रश्नः न कार्यता अस्ति समवायः अपि अस्ति तत्र कः कस्य अवच्छेदकः केवलं समवायः कार्यता तयोः मध्ये अवच्छेदकः इति कः भवति अवच्छेदकः का अस्ति
समवाय अनन्तरं कार्यता मध्ये महोदय
रूपमिति अधिकरणम् इदानीं रूपमिति का अधिकरणं रूपे अनेकविधकार्यता भवितुम् अर्हति खलु
तत्र
एषा कार्यता चिन्ना अस्ति
महोदय
एषा कार्यता नाम तत्र बहुविधकारणानि सन्ति खलु महोदय तत्र समवायिकारणम् इति विषयः खलु तर्हि कारणता अपि अस्ति कार्यता अपि अस्ति तर्हि तत्र समवायः अपि तत्र कार्यत इति तत्र तयोः तत्र कार्यतायाः एकः धर्मः वर्तते वा अथवा सम्बन्धः वर्तते वा कार्यतायाः समवायसम्बन्धः एव अवच्छेदकः अस्ति कार्यतायाः इति गतवर्गे पठितं खलु तत्र महोदय एकवारं पठतु महोदय तत्र तत्र अत्र एतद् वाक्यं महोदय अन्तिमवाक्यम् एवञ्च इति
एवञ्च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपितदार्थसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवायकारणस्य लक्षणं परिवसितम्
इदानीम् अस्तु तर्हि अर्थः कः अस्मिन् उदाहरणे उदाहरणं रूपं घटः घटः इति
समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित इत्युक्ते अत्र रूपं रूपकार्यता मध्ये समवायसम्बन्धः अस्ति
तर्हि तत्र कः अवच्छेदकः का अवच्छिन्ना अत्र
कार्यम् इति रूपम् इति अवच्छिन्ना कार्यम् इति
पुनः पुनः एकवारं पठतु महोदय तत्र
एवञ्च समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित
तावत्
अत्र कार्यता इति रूपमस्ति
कार्यता इति रूपं नास्ति कार्यता रूपं कार्यमस्ति
रूपे कार्यता अस्ति
रूपे कार्यता अस्ति अतः एव वयं तत्र कार्यता इति लिखितवन्तः खलु रूपे कार्यता वर्तते यतोहि रूपं कार्यमस्ति खलु रूपे कार्यता वर्तते सा कार्यता कीदृशी
समवायसम्बन्ध अवच्छिन्ना
कार्यता अस्ति तर्हि तत्र कार्यता समवायसम्बन्धावच्छिन्ना अस्ति तर्हि समवाय इति समवायसम्बन्धः अवच्छेदकः वा अवच्छेद्यः वा
समवायसम्बन्धः इति
अवच्छेदकः समीचीनं तर्हि समवायसम्बन्धः इति अवच्छेदकः अस्तु कार्यता इति
अवच्छेद्या
समीचीनं तर्हि समवायसम्बन्धः अवच्छेदकः अस्ति इति कृत्वा समवायसम्बन्धे किम् अस्ति यथा रूपं कार्यमिति कृत्वा रूपे कार्यता वर्तते समवायसम्बन्धः अवच्छेदकः इति कृत्वा समवायसम्बन्धे किम् अस्ति अवच्छेदकता समवायसम्बन्धे अस्ति खलु कार्यतायां किमस्ति
कार्यतायां कार्यतायाम् अवच्छेद्यता अस्ति
समीचीनं महोदय अपि वयं जानीमः खलु तत्र शार्ट्कट् अस्ति नाम उपरि गत्वा एतादृशम् अकृत्वा वयं किं वदामः समवायसम्बन्धावच्छिन्न कार्यता इति वदामः खलु समवायसम्बन्धावच्छिन्न कार्यता इत्युक्ते समवायसम्बन्धनिष्ठ दीर्घरूपं वदतु समवायसम्बन्धनिष्ठ
समवायसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय कार्यं
कार्यता इति भवति उत्तमं महोदय अतः एव वयं समवायसम्बन्ध अवच्छिन्न कार्यता इति वदामः उत्तमं महोदय धन्यवादः अस्तु इदानीम् अग्रे चन्द्रमती भगिनी इदानीं तत्र एतादृशं पुनः तत्र घटः किमस्ति घटः
खडः
अस्मिन् उदाहरणे घटः किमस्ति कारणमस्ति खलु
खडः कारणमस्ति सम्बन्धेन खडः खडः अस्ति
तर्हि एतादृशं चित्रं यदि लिखामः तर्हि किं किं भवति
रूपं
न न इदानीं केवलं घटः तर्हि घटः इति लिखामि
खडः
घटः तदनन्तरं घटे किम् अस्ति घटे घटः कारणम् इति कृत्वा घटे किम् अस्ति कार्यम् अस्ति इति कृत्वा रूपे कार्यता अस्ति घटः कारणम् इति कृत्वा घटे
कार्यता
न न रूपं रूपं कार्यमस्ति घटः कारणमस्ति रूपे कार्यता अस्ति घटे किमस्ति घटः कारणं तर्हि
घटः कारणं रूपं कार्यं
तर्हि रूपे कार्यता अस्ति
रूपे
घटः किमस्ति घटः कारणं तर्हि घटे किम् अस्ति कारणता अस्ति अस्तु समीचीनम् अपि कार्यता कारण कारणता तयोः मध्ये निरूप्य निरूपकभावः वर्तते हा अस्तु इदानीं तत्र घटः एषा कारणता या अस्ति अवच्छेदकः सम्बन्धः अस्ति वा सः सम्बन्धः कः पुस्तके न न इदानीं पुस्तके पठतु भगिनि तत्र अतः अत्र
एवं च एवं च समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित
एतावत् तत्र नरसिंह हेग्डे महोदय पठितवान्
समवाय
निरूपित इति आरभ्य तदनन्तरं किमस्ति
निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता आश्रयत्व
हा इति तर्हि तत्र तत् अत्र कथं घटते घटः अस्ति समवायिकारणं तर्हि तादात्म्यसम्बन्धावच्छिन्ना इति उक्तं पूर्वं समवायसम्बन्धावच्छिन्ना कार्यता इति उक्तं समवायसम्बन्धावच्छिन्ना कार्यता इति अर्थः एतत् चित्रं खलु खलु भवती अङ्गीकरोति वा समवायसम्बन्धावच्छिन्न कार्यता इत्युक्ते एतत् चित्रम् इति अङ्गीकरोति वा हा तर्हि तादृशम् इदानीं तादात्म्यसम्बन्ध आवच्छिन्न कारणता इति भवति चेत् तर्हि तत्र किं किं भवेत् तत्र इदानीं कारणता अस्ति कारणता कीदृशी अस्ति कारणता केन अवच्छिन्ना अस्ति
कारणता खडे
हा तादात्म्यसम्बन्धः समीचीनं हा तर्हि
तत्र तादात्म्यसम्बन्धावच्छिन्न
हा तादात्म्यसम्बन्धः इति लिखामः तादात्म्यसम्बन्धेन
घटे वर्तते
घटे वर्तते तर्हि तत्र अवच्छेद्यता कुत्र अस्ति
अवच्छेद्यता खडे
न
अवच्छेद्यता
कारणतायाम् अस्ति खलु
अवच्छेद्यता कारणतायाम्
अपि अवच्छेदकत्र अस्ति
तादात्म्यसम्बन्ध अवच्छिन्न अवच्छेद्यता
हा तर्हि तत्र तादात्म्यसम्बन्ध अवच्छिन्न शार्ट्कट् अस्ति खलु तत्र तादात्म्यसम्बन्ध अवच्छिन्न कारणता इत्युक्ते केवलम् इतगमनं किन्तु दीर्घवाक्यं कुर्मश्चेत् तत्र किं भवति तादात्म्यसम्बन्धनिष्ठ
तादात्म्यसम्बन्धनिष्ठ
अवच्छेद्यता
अवच्छेदकता निरूपित अवच्छेद्यतायाः
अवच्छेद्यतायाः आश्रयः
आश्रयः कारणम्
इति भवति. हा उत्तमं भगिनि. हा अतः तत्र तादात्म्यसम्बन्धावच्छिन्नकारणता इति वदामः. अतः एतत् सर्वम् आगतं खलु इदानीं तत्र. तर्हि इदानीं सम्पूर्णचित्रं लिखामश्चेत् तत्र किं भवति? रूपम् इति भवति, घटः इति भवति, पुनः घटः इति भवति अत्र. इदानीं तत्र अन्तिम कुर्मः. तर्हि घटः किम् अस्ति अत्र? अधोभागे यत् घटः अस्ति तदस्ति अधिकरणम्. अधिकरणं समीचीनम्. एषः घटः अस्ति कारणम्. अपि एतत् रूपम् अस्ति
कार्यं.
कार्यम् अपि अत्र सम्बन्धः अस्ति
समवायसम्बन्धः.
अपि अत्र अस्ति तादात्म्यसम्बन्धः.
खडः खडे तादात्म्यसम्बन्धेन वर्तते. रूपं खडे समवायसम्बन्धेन वर्तते.
रूपे कार्यता
अस्ति. रूपे कार्यता अस्ति.
अवच्छेदकः कार्यता कीदृशी
अस्ति?
समवायसम्बन्ध अवच्छिन्ना कार्यता कीदृशी? समवायसम्बन्ध अवच्छिन्ना अस्ति. कारणता कीदृशी अस्ति?
कारणता तादात्म्यसम्बन्ध
अवच्छिन्न अस्ति इति भवति. समीचीनं. हा धन्यवादः भगिनि. अस्तु इदानीं मृणालिनी भगिनि, इदानीं तत्र यत् अन्तिमद्वितीयपरिच्छेदे अन्तिमवाक्यं यत् तत्र नरसिंहगडे महोदयेन अपि तत्र चन्द्रमती भगिन्या पठितं, तत् एकवारं पठतु भगिनि. एवं च इति
समवायसम्बन्धावच्छिन्ना कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्ना कारणताश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम्
इति. इदानीं किञ्चित् किञ्चित् विवृणोतु भगिनि. तत्र अस्माकम् उदाहरणे वयं वदामः घटः रूपस्य समवायिकारणम् इति वदामः. तर्हि घटः रूपस्य समवायिकारणम् अस्ति. समवायिकारणस्य लक्षणं किम् अस्ति नाम लक्ष्ये किम् अस्ति येन वयं जानीमः अस्तु एतदेव समवायिकारणम् अन्यत् नास्ति. अतः कथं जानीमः एतदेव घटः एव समवायिकारणं? तर्हि लक्षणम् इति कुर्मश्चेत् तत्र घटः लक्ष्यं, लक्ष्ये लक्षणं भवेत्. तर्हि लक्षणं वाक्यम् इदानीं भवती पठितवती. तर्हि लक्षणवाक्ये किं किम् अस्ति इति किञ्चित् विवृणोतु. तर्हि तत्र घटे
घटे कारणता वर्तते.
हा उत्तमं. घटे कारणता वर्तते.
लक्षणं कार्यम् अर्थात्
न लक्षणं कार्यम् इति नास्तु. तर्हि अस्तु लक्षणमिति पदं त्यजामः. तर्हि घटः इति कारणं. तर्हि घटे कारणता वर्तते.
घटे कारणता वर्तते. कारणता तादात्म्यसम्बन्धावच्छिन्ना वर्तते.
हा उत्तमं भगिनि. तादात्म्यसम्बन्धावच्छिन्ना वर्तते कारणता. उत्तमं. हा अपि इदानीं
रूपं कार्यं ते रूपे कार्यं वा कार्यता समवायसम्बन्धावच्छिन्ना
इति भवति. उत्तमं भगिनि. हा इदानीं तत्र वयं किं वक्तुम् इच्छामः? तत्र घटः इति समवायिकारणं खलु. भवती उक्तवती घटः कारणम् इति कृत्वा घटे कारणता वर्तते. किन्तु वयं समवायिकारणं घटः इति वक्तुम् इच्छामः तर्हि कारणतायाः विशिष्टगुणं किमपि भवेत्, विशिष्टं किमपि भवेत्, वैशिष्ट्यं भवेत् खलु. नाम तत्र अनेकाः कारणताः स्युः घटे, किन्तु एषा कारणता समवायिकारणत्वम् इति प्रदर्शयति, अतः तत्र तस्य तस्यां किं किम् अस्ति, सा कीदृशी इति विवरणम् अपेक्षितम् अस्ति. तर्हि सा कारणता कीदृशी अस्ति, भवती उक्तवती सा तादात्म्यसम्बन्धावच्छिन्ना अस्ति खलु, इति एकं विशेषणं खलु. कारणता कीदृशी, कारणता तादात्म्यसम्बन्धावच्छिन्ना अस्ति इति विशेषणं खलु. कस्याः? कारणतायाः खलु. अपि कारणता कीदृशी अस्ति, कार्यता तयोः मध्ये कीदृशसम्बन्धः?
निरुक्तनिरूपकसम्बन्धः
तर्हि कारणता कीदृशी इत्युक्ते कार्यता निरूपिता खलु.
कार्यता निरूपितकारणता,
कार्यता निरूपितकारणता इति द्वितीयं विशेषणम् आगतं खलु. कारणता कीदृशी, तादात्म्यसम्बन्धावच्छिन्नकारणता विशेषणं. द्वितीयविशेषणं किम् अस्ति?
द्वितीयविशेषणं कार्यतानिरूपितकारणता,
कार्यतानिरूपितकारणता इति आगतम्. इदानीं कार्यतायाः विशेषणमपि अस्ति वा?
आम्, समवायसम्बन्धावच्छिन्ना कार्यता,
कार्यता. उत्तमं भगिनि. हा, तर्हि कार्यता कीदृशी अस्ति, समवायसम्बन्धावच्छिन्न कार्यता, तादृशी कार्यता या अस्ति तया निरूपितकारणता खलु. अपि सा कारणता तादात्म्यसम्बन्धावच्छिन्ना अपि अस्ति खलु. इदानीं तत्र वाक्यं पुनः पठतु, समवायसम्बन्धावच्छिन्ना इति आरभ्य.
समवायसम्बन्धावच्छिन्ना कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता आश्रयत्वं समवायिकारणस्य लक्षणं.
तर्हि प्रथमभागः किं वदति? समवायसम्बन्धावच्छिन्न कार्यता अस्ति कार्ये, अपि तया कार्यतया
निरूपित तादात्म्यसम्बन्धावच्छिन्ना
कारणता तस्याः आश्रयः घटः वर्तते इति कृत्वा कारणतायाः आश्रयत्वं घटे अस्ति खलु. आश्रय इत्युक्ते घट, घटे आश्रयत्वम् अस्ति खलु. हा, एतद् आश्रयत्वमेव लक्षणम्, नाम घटः लक्ष्यं, नाम घटः समवायिकारणं, समवायिकारणं लक्ष्यमस्ति. तस्य नाम लक्ष्यमिति चेत् किमपि अस्ति, तस्य लक्षणं नाम तस्य डेफिनेशन् किम् इति वा यदि प्रश्नः भवति तदा किं वदामः? घटः समवायिकारणमस्ति, किमर्थं घटे आश्रयत्वं वर्तते, कस्य आश्रयत्वं वर्तते? कारणतायाः. कीदृशी कारणता सा? तादात्म्य सम्बन्धावच्छिन्ना कारणता, अपि कार्यतानिरूपितकारणता.
कार्यतानिरूपितकारणता समवायि
कार्यता. हा, उत्तमं भगिनि. समवयसम्बन्धावच्छिन्नकार्यता निरूपितकारणता, तादात्म्यसम्बन्धावच्छिन्नकारणता तस्याः आश्रयत्वं घटे वर्तते. अस्तु, समीचीनं भगिनि. अस्तु, इदानीम् अशोक् महोदय, इदानीं तत्र अतः आरभ्य, तत्र समवायसम्बन्धावच्छिन्न इति आरभ्य एतावत् घटः पर्यन्तम् एकवारं वदतु महोदय.
समवायसम्बन्ध अविच्छिन्न कार्यता निरूपित कारणताश्रयः घटः
किन्तु तादात्म्यसम्बन्ध अपि निवेशनीयं.
तादात्म्य एकं वाक्यम् एव अस्तु. समवयसम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं समवायिकारणस्य लक्षणम्.
समवायकारणस्य लक्षणं नाम एतत् लक्ष्ये वर्तते. लक्ष्यं नाम समवायिकारणम् अस्ति घटः. घटे एतादृशम् आश्रयत्वं वर्तते इति भवति. धन्यवादः महोदय. अस्तु, इदानीं तत्र अग्रे भवानेव अग्रे पठति वा इदानीं? एतावत् सर्वे अवगतवन्तः इति मन्ये. एकनिमिषं महोदय, तत्र एकः प्रश्नः अस्ति चेत् पृच्छामः, तदनन्तरं भवान् पठतु अग्रे. तत्र योगेन्द्रमहोदय, समीचीनमस्ति वा? एकवारं स्वशब्दैः वदति वा किं किम् अस्ति इति?
आम्, तत्र घटः अधिकरणमस्ति. घटः अधिकरणे तादात्म्यसम्बन्धः नास्ति. अपि च घटः कारणमस्ति. घटे कार्यता अस्ति. कारणता अस्ति. रूपं कार्यमस्ति. रूपे कार्यता अस्ति. रूपं घटे समवायिकारणम् अस्ति. घटः अधिकरणे तादात्म्य सम्बन्धेन अस्ति. अस्तु, इदानीं समवायसम्बन्धः अवच्छिन्न कार्यता निरूपिता कारणता.
तत्र यथा कार्यतायाः पूर्वं समवायसम्बन्धः अवच्छिन्न इति उक्तवान्, तथैव कारणता इति वदनेन वदनात् प्राक्
कीदृशी कार्यता कारणता इत्युक्ते तादात्म्यसम्बन्ध अवच्छिन्न कारणता कारणतायाः आश्रयः घटः.
आश्रयः घटः अथवा आश्रयत्वं घटे
अस्ति.
अस्ति, हा, पुनः एकवारं महोदय. समवाय
समवायसम्बन्ध अवच्छिन्न कार्यता निरूपिता तादात्म्यसम्बन्ध अवच्छिन्न कारणता याः आश्रयत्वं घटे वर्तते
इति अस्ति. समीचीनं महोदय. अस्तु, उत्तमं. हा, धन्यवादः. उषा भगिनी, भवती एव भवती अपि एकवारं वदतु भगिनि.
रूपे कार्यता अस्ति. तत् कार्यता समवायसम्बन्धेन समवाय तत् कार्यता कार्यतायाः सा कार्यता कार्यतायाः अवच्छेदकः अस्ति समवायसम्बन्धः. तदा एव समवायसम्बन्ध अवच्छिन्नकार्यता कार्यता इति भवति. अनन्तरं घटः इति कारणम् अस्ति. तत् घटः इति तत् घटः इति कारणता तादात्म्यसम्बन्धेन भवति. तादात्म्यसम्बन्धेन अवच्छिन्ना भवति. सो समवायसम्बन्ध अवच्छिन्नकार्यता कार्यता निरूपित तादात्म्य अवच्छिन्नकारणता कारणता आश्रयः घटः तत् समवायीकारणम् इति
भवति. उत्तमं भगिनि. हा, तर्हि घटः आश्रयः, तर्हि घटे आश्रयत्वं
वर्तते.
किमर्थं तत्र घटः साक्षात् आश्रयः, अतः घटे आश्रयत्वं भवति. तादृशं किमर्थं वदामः? यतोहि अस्माकं लक्ष्यं सर्वदा अस्ति तत्र एतद् लक्ष्यम् अस्ति चेत् तत्र लक्ष्ये लक्षणं
भवेत्.
अतः घटः लक्ष्यं, तस्मिन् किम् अस्ति इति यदि वदामः स्पष्टं भवति. अतः घटः आश्रयः, किन्तु घटे आश्रयत्वम् अस्ति इति आश्रयत्वं लक्षणं भवति. समवायिकारणं घटः, तस्मिन् एतद् लक्षणम् आश्रयत्वं वर्तते आश्रयत्वं वर्तते इति यदि वदामः स्पष्टं भवति. अस्तु कथं वयं समवायिकारणं किम् इति निर्णयं कर्तुं शक्नुमः यस्मिन् पदार्थे एतादृश आश्रयत्वं वर्तते सः पदार्थः समवायिकारणं भवति. कार्यत कार्यं किमपि अस्ति रूपम् इति कार्यमस्ति तस्य समवायिकारणं किम् इत्युक्ते कार्यता निरूपितकारणतायाः अवच्छेदकः धर्मः सर्वं यदि भवति चेत् तेन वयम् अवगच्छामः अस्तु एतत् समवायिकारणम् अस्ति अतः अत्र एव वर्तते अत्र एव अस्मिन् लक्ष्ये एव लक्षणं केवलं लक्ष्ये एव भवेत् खलु अन्यत्र न भवेत् खलु अतः आश्रयत्वम् एतादृश आश्रयत्वं केवलं समवायिकारणे एव भवति अतः एव तत्र अवच्छेदकधर्मस्य निवेशनम् अवच्छेदकधर्मः नास्ति चेत् अतिव्याप्तिदोषः भवति इति समीचीनं भगिनि धन्यवादः. अस्तु इदानीं तत्र नरसिंहगिरि महोदय एकवारं भवान् अपि तत्र वदतु महोदय.
आम् कार्यता अवच्छेदकः अत्र घटरूपं पश्यामः चेत् घटः कार्यकारणमस्ति कार्यमस्ति कार्यता अवच्छेदकः समवायसम्बन्धावच्छिन्न कार्यता निरूपित तदात्मसम्बन्धावच्छिन्न कारणता घटे भवति.
हा कारणता घटे भवति समीचीनं. हा तर्हि घटः आश्रयः भवति तर्हि आश्रयत्वं कारणतायाः आश्रयत्वं घटे वर्तते. अस्तु समीचीनं महोदय. अस्तु
धन्यवादः.
हा समीचीनं महोदय. अस्तु चन्द्रमती भगिनी उक्तवती अशोक महोदय
अहमपि वदामि.
हा अस्तु भगिनि
समवायसम्बन्ध अवच्छिन्न कार्यतायाः समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्य सम्बन्ध अवच्छिन्न कारणतायाः आश्रयः खडः खडे आश्रयत्वं कारणतायाः आश्रयत्वं वर्तते.
अतः एव घटः
कारणं
लक्ष्यम् अस्ति. उत्तमं भगिनि. हा उत्तमम् अस्तु समीचीनं. हा अतः इदानीं तत्र अग्रिमवारं यदि कोऽपि तत्र एतद् वाक्यं पठति सम्यक्तया तत्र मनसि भवेत् तत्र किमपि नास्ति. हा यत् चित्रे वयं प्रदर्शितवन्तः तदेव अस्ति तावदेव. कार्यं कारणम् अधिकरणं सम्बन्धः समवायः अत्र सम्बन्धः तादात्म्यसम्बन्धः तावदेव तेन वयं तत्र लघु लघुना दीर्घवाक्यं रचितवन्तः तावदेव. अस्तु इदानीम् अग्रे अशोकमोदी अग्रे इदानीम्
एतादृशकार्यकारणभावे सिद्धे भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे च सिद्धे एकः घटः इति घटे एकत्व अवगाही प्रत्ययः तयोः समवायमेव प्रकाशयति सङ्ख्यायाः घटस्य च समवायात् परन्तु एकं रूपम् इति प्रतीतिः जायमाना अपि एकत्वरूपयोः समवायं न प्रकाशयति दर्शितरीत्या सङ्ख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायिकारणत्व असम्भवात् अतः इयं प्रतीतिः तयोः समवायं न अवगाहते किन्तु समवाय घटित सामानाधिकरण्यम् एव एकस्मिन् एव हि घटे एकत्वं रूपं च उभयं समवायेन वर्तते अतः तयोः सामानाधिकरण्यं समवाय घटितम् इति स्पष्टम्। एवं च घटे समवायेन विद्यमानम् एकत्वं सामानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्य अपि निर्वाहः शक्यः कर्तुम् इति दिक्।
इदानीं तत्र नूतन किञ्चित् नूतनविषयः अस्ति महोदय, नाम तत्र एकत्वम् इति संख्या इति नूतन संख्या अपि गुणः अस्ति खलु।
एतादृशकार्यकारणभावे सिद्धे भावकार्य पूर्वोक्त कार्यकारणविषय प्रति
नाम तत्र तत्र कारणभावः भावे सिद्धे तत्र सतिसप्तमी नाम यदा एतत् कृतं सिद्धः भवति नाम वयम् अस्य ज्ञानं प्राप्तवन्तः
भावकार्यदृश प्रति भावकार्यं समवाय सम्बन्धेन कृतं कार्यं वा भावकार्यम् इति
नाम अभावः इति अपि तत्र कार्यं भवितुम् अर्हति किन्तु तस्य विषयः अत्र नास्ति खलु। तत्र केवलं भाव भावपदार्थानामेव कार्यम् इति वयं चिन्तयामः खलु। तत्र कार्यं तत्र क्रिया भवति अथवा तत्र द्रव्यं भवति अथवा गुणः भवति इति अतः भावकार्यमात्रं प्रति
द्रव्यस्य समवायिकारणत्वे यदि द्रव्यः समवायिकारणम् अस्ति तत् स्थितौ
नाम महोदय तत्र पुनः एकवारं पठतु भावकार्यमात्रं प्रति
भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे
च सिद्धे नाम तत्र सिद्धे किं किम् अस्ति एतादृशकार्यकारणभावः नाम सिद्धः नाम सिद्धः अस्ति वयम् अवगच्छामः इदानीं तत्र एतादृशकार्यकारणभावः वयम् अवगच्छामः अपि तत्र कीदृशकार्यकारणभावः वयम् अवगच्छामः तत्र समवायिकारणं किम् इति अवगच्छामः तत्र समवायिकारणं किं भवति एतेषु उदाहरणेषु द्रव्यमेव भवति खलु सर्वदा खलु यतोहि तत्र अधिकरणं द्रव्यमेव अस्ति अतः द्रव्यस्य समवायिकारणत्वं नाम द्रव्यमेव अधिकरणं समवायि अधिकरणमस्ति द्रव्यमेव समवायिकारणम् अस्ति नाम सर्वत्र तत्र घटः तन्तुः कन्दुकं हस्तः बालकः सर्वत्र द्रव्यमेव समवायिकारणं यद्यपि तत्र कार्यं द्रव्यं नास्ति किन्तु समवायिकारणं सर्वदा द्रव्यमस्ति एतदपि वयं जानीमः तादृशमपि वयं जानीमः सः तदपि सिद्धः अस्ति वयम् अवगच्छामः इदानीं अग्रे किं भवति
एकः घटः इति
इदानीम् एकः घटः इति अस्ति इति चिन्तयामः प्रतीतिः तत्र अवगति प्रत्ययः प्रत्ययः प्रतीतिः नाम तत्र ज्ञानं नाम इति तत्र रक्तवर्णघटः अथवा रक्तपुस्तकम् इति यदि अवगच्छामः वयं किम् अवगच्छामः तत्र पुस्तके रक्तवर्णः इति गुणः वर्तते खलु रक्तपुस्तकं रक्तवर्णपुस्तकम् इति वदामः अस्तु रक्तरूपं पुस्तके अस्ति तथैव एकः घटः इति यदि वदामः तत्र किं भवति
घटे एकत्वम् अस्ति
अवगाही अवगाहिनी नाम अवगाहते अवगाहः नाम तस्य ज्ञानं बोधयति तत्र एषः प्रत्ययः ज्ञानं बोधयति घटे एकत्वम् अस्ति इति बोधयति अतः अवगाही अस्ति प्रत्ययः
प्रत्ययः अपि ज्ञानम् इति अस्ति.
प्रत्ययः इति एकविधज्ञानं महोदय, नाम तत्र अयं घटः इति प्रत्ययः, अयं घटः इति ज्ञानम्, अत्र एकः घटः इति अथवा घटे एकत्वम् इति तत्र अवगाहते. तत्र एकः घटः इति प्रत्ययः अथवा प्रतीतिः, सः किं करोति, घटे एकत्वं वर्तते इति बोधयति.
अस्तु,
अपि किं करोति अन्यत् तयोः
द्वे विषये
हा हा द्वयोः तयोः किं प्रदर्शयति,
समवायं प्रकाशयति इति.
हा नाम
द्वे विषयौ कौ, एकत्वं घटे अस्ति इति विषयः, द्वितीयविषयः कः,
नाम विषयः तत्र अस्ति. उत्तमं महोदय, नाम वयं पूर्वं पठितवन्तः, तत्र पश्यतु, तत्र यत्र प्रथमवारं वयं ज्ञानस्य निरूपणं कृतवन्तः, तत्र दीपः अस्ति एतादृशवर्णनम् आसीत्. कुत्र अस्ति तत्र, एकनिमिषः, तत्र हा तत्र पञ्चत्रिंशत्तमे पुटे तत्र चित्रमस्ति खलु महोदय, तत्र ज्ञानं कीदृशम् इत्युक्ते तत्र हा महोदय क्षम्यतां, तत्र 33 पश्यतु महोदय, अधोभागे
चित्रं सप्तसप्ततिः, सप्ततमचित्रं वा,
पेज् 33 महोदय,
33
हा
घटः संयोगः अस्तु, त्रिविध
उपरि उपरि यदि पठति चेत् महोदय, तत्र भूतलं घटवत् इति अस्ति, स्थूलक्षरैः लिखितं खलु, भूतलं घटवत्.
आम् आम्
हा तत्र भूतलं घटवत् नाम घटवत् इति विशेषणं, भूतलम् इति विशेष्यं, घटः इति साक्षात् भूतले संयोगे सम्बन्धेन वर्तते इति, अतः तत्र भूतलं घटवत् इति यदि प्रतीतिः भवति, ज्ञानं भवति, तत्र विषयत्रयं वयम् अवगच्छामः खलु. हा नाम विशेष्यम् अधिकरणम् आदेयः, अपि तयोः मध्ये आदेयः केन सम्बन्धेन अधिकरणे अस्ति इति खलु. हा तथैव अत्र एकः घटः इति यदा ज्ञानं भवति तदा किम् अवगच्छामः,
ओ एकत्वम् अस्ति, घटः अस्ति, समवाय
एकत्वं समवायसम्बन्धेन घटे वर्तते इति अवगच्छामः. समीचीनं खलु महोदय. एकत्वम् इति गुणः तत्र घटे समवायसम्बन्धेन वर्तते इति अवगच्छामः. अतः एव तत्र तयोः नाम घटः एकत्वयोः समवायेन समवायम् एव प्रकाशयति इति उक्तम्.
अस्तु अस्तु, एकत्वं प्रकाशयति, घटम् अपि प्रकाशयति.
हा इति सत्यं महोदय, हा एतदपि प्रकाशयति, एतमपि प्रकाशयति, एतं सम्बन्धमपि प्रकाशयति. अग्रे
सङ्ख्यायाः घटस्य च समवायात्,
नाम तयोः मध्ये समवाय
सङ्ख्या घटे समवायसम्बन्धेन अस्ति, अतः एतद् ज्ञानं समवायः प्रकाशयति इति
समवायं प्रकाशयति. हा समीचीनं महोदय. तत्र अत्र उक्तमस्ति नाम विषयत्रयः अस्ति इति कृत्वा तत्र प्रकारता विशेषता संसर्गता इति तत्र सर्वं खलु एकत्वे प्रकारता अस्ति समवायसम्बन्धे संसर्गता अस्ति घटे विशेष्यता अस्ति इति तस्मिन् समये वयं पठितवन्तः. अस्तु इदानीम् एतत् उदाहरणं वयम् अवगच्छामः नाम यथा पूर्वं वयं पठितवन्तः तथैव अस्ति. गुणः द्रव्ये समवायसम्बन्धेन अस्ति तर्हि घटः एकत्वस्य समवायिकारणम् अस्ति इति एतत् अवगच्छामः खलु. इदानीं नूतनम् आगच्छति. हा परन्तु
एकं रूपम् इति प्रतीतिः जायमाना अपि अतः एकत्व एकरूपम् अस्ति इति ज्ञानम्
इदानीं ज्ञानं हा इदानीं यतः एकः घटः अस्ति इदानीम् एकत्व एकं रूपम् इति भवति चेत् तत्र किं भवति एकत्वं कुत्र अस्ति रूपे अस्ति खलु
तदेव
एकं
खलु यतोहि रूपं द्रव्यं नास्ति
इति भवति महोदय. अस्तु हा पठामः तर्हि. हा तर्हि किं भवति
एकत्वरूपयोः समवायं न प्रकाशयति.
तर्हि अत्र
द्रव्य गुणिगुणिनोः मध्ये अस्ति रूपं गुणि
न भवति
द्रव्यः नास्ति.
हा समीचीनं महोदय. नाम तत्र वयं जानीमः गुणस्य आश्रयः सर्वदा तत्र समवायसम्बन्धेन तत्र द्रव्ये एव भवति. एकः गुणः अन्यस्मिन् गुणे कदापि न भवति. वयं दृष्टवन्तः तत्र पुटसङ्ख्या तत्र पुस्तके दर्शितमस्ति. तत्र सर्वे पश्यन्तु तत्र अष्टमे पुटे तत्र प्रत्येकपदार्थः कुत्र कुत्र भवितुम् अर्हति इति दर्शितमस्ति. तत्र गुणः आश्रयः अस्ति चेत् तत्र सामान्यं समवायः अभावः भवितुम् अर्हति गुणे. किन्तु एकः गुणः अन्यस्मिन् गुणे न भवितुम् अर्हति. गुणस्य आश्रयः केवलं तत्र द्रव्यं भवितुम् अर्हति. तत्र सामान्यं न भवति. विशेषः गुणस्य आश्रयः न भवितुम् अर्हति. अभावः गुणस्य आश्रयः न भवितुम् अर्हति. अतः इदानीं वयं यदि वदामः एकं रूपं तु इति प्रतीतिः तु जायते खलु. बहुवारं वयं वदामः एकं रूपमेव अस्ति पटे घटे एकमेव रूपम् अस्ति इति वदामः तर्हि एकं रूपम् इति तत्र जायमानमस्ति. किन्तु तत्र एकत्वरूपयोः समवायं तु नास्ति न प्रकाशयति. तर्हि तत्र एकत्वं रूपे केन सम्बन्धेन भवति इति प्रश्नः. अस्तु महोदय अग्रे.
दर्शितरीत्या सङ्ख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायिकारणत्व असम्भवात्. रूपं समवायिकारणं न भवितुं शक्नोति.
समीचीनं महोदय. यथा वयं दर्शितवन्तः पूर्वं दर्शितरीत्या तत्र रूपात्मकस्य गुणस्य नाम रूपम् इति गुणं यदस्ति गुणः यः अस्ति सः गुणः सङ्ख्यारूपगुणं प्रति समवायीकारणं न भवति कारणत्वस्य असम्भवात् न भवति. अतः रूपम् एकत्वस्य समवायीकारणं नास्ति इति भवति. अस्तु समीचीनं महोदय. इदानीम् अग्रे अन्य कोऽपि पठेत्. धन्यवादः महोदय. अस्तु इदानीम् अग्रे योगेन्द्रमहोदय अग्रे पठति वा?
पठितुं शक्नोमि महोदय.
अस्तु अस्तु विमला भगिनी. अस्तु तर्हि भवती एव अग्रे पठ इदानीं पठतु. अतः
एकनिमिषं महोदय. अतः अतः
एतावत् अवगतवती खलु भगिनि किञ्चित् विवरणति वा तत्र
अवगतं
भेदः कः अत्र
एकत्वमपि एकत्वं संख्या इति गुणः अस्ति रूपम् अपि गुणः अस्ति गुणः केवलं द्रव्ये भवितुम् अर्हति गुणः गुणे भवितुं न अर्हति
हा इति समीचीनम् अतः रूपम् एकत्वस्य समवायीकरणं न भवति
न अर्हति अस्तु अतः इयं प्रतीतिः तयोः समवायं न अवगाहते किन्तु समवायघटितसामानाधिकरण्यमेव इत्युक्ते एतयोः समवायसम्बन्धः नास्ति परन्तु ते तयोः घटे सामानाधिकरण्यमस्ति इति
नाम सामानाधिकरण्यं तत्र यदि वयं वदामः तत्र तयोः मध्ये कीदृशसम्बन्धः तत्र एकत्वम् इति तत्र रूपस्य विशेषणम् अस्ति तर्हि तत्र एकत्वं केनापि सम्बन्धेन रूपे भवेत् यत्र विशेषणम् अस्ति विशेषणं विशेष्ये भवेत् भवेत् अत्र अतः तत्र कोऽपि सम्बन्धः अस्ति किन्तु तत्र अतः तत्र
समवायसम्बन्धः नास्ति इति
केवलं हा समवायसम्बन्धः साक्षात् नास्ति किन्तु समवायघटितघटित सामानादिकरण्यं
घटे अस्ति इति
हा घटितं घटितम् अस्ति नाम तत्र सम्बन्धे समवायसम्बन्धः अपि एकः भागः अस्ति किन्तु केवलं समवायसम्बन्धः इति नास्ति सामानाधिकरण्यम् एव इति नाम तत्र किम् अवगच्छामः तयोः मध्ये सामानाधिकरण्यं वर्तते इति अवगच्छामः अतः तत्र हा इदानीं तत्र नाम यदि वयं वदामः तत्र घटे तत्र रक्तवर्णघटः इति चिन्तयामः तर्हि तत्र रक्तवर्णघटः तत्र एकं रूपम् अस्ति घटे इति यदि वदामः तर्हि तत्र रूपं घटे वर्तते एकत्वमपि घटे एव वर्तते एकं रूपम् अस्ति घटे इति यदि वदामः तर्हि तत्र एकत्वं घटे वर्तते समवायसम्बन्धेन रूपमपि समवायसम्बन्धेन घटे वर्तते अतः एकस्मिन् एव हि घटे अग्रिमवाक्यं हा एकस्मिन् एव हि घटे एकत्वं
एकनिमिषं महोदय
चिन्ता मास्तु
एकस्मिन्नेव हि घटे एकत्वं रूपं च उभयं समवायेन वर्तते दे समवायेन घटे वर्तते एकत्वमपि अस्ति रूपमपि अस्ति घटे
रूपमपि घटे वर्तते समवायसम्बन्धेन एकत्वमपि
समवायसम्बन्धेन
वर्तते इति अस्ति
अत्र तयोः सामानाधिकरण्यं समवायघटितमिति स्पष्टम् कृते समवायेन विद्यमानम् एकत्वं सामानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्य अपि निर्वाहः शक्यः कर्तुमिति दिक्
इदानीं तत्र भगिनी तत्र यथा वयं पूर्वम् उक्तवन्तः तथैव तत्र अत्रापि करणीयमस्ति तर्हि अग्रे पठामः तर्हि तत्र एकनिमिष तर्हि तत्र एकनिमिष कुर्मः अस्तु इदानीं प्रायशः तत्र सम्यक्ता एकनिमिषं भगिनि किञ्चित् बृहत् अस्तु अस्तु क्षम्यतां इदानीं तत्र अतः तयोः
घटे एकत्वेन समवायेन एकत्वम् अस्ति अपि च रूपं घटे समवायेन अस्ति परन्तु एकत्वम् एकत्वस्य घट रूपस्य च सम्बन्धः
एतावत् न उक्तं किन्तु तत्र तत्र घटे तत्र उभयमपि घटे वर्तते
समवायिनस्तः
हा अस्तु इदानीम् अतः अतः
तयोः समानाधिकरण्यं समवायघटितमिति स्पष्टम्
इदानीम् इदानीं तत्र अस् एतादृशी स्थितिः यथा भवति नाम अस्माकं लक्ष्यं किं वयं वक्तुम् इच्छामः रूप एकत्वं रूपे वर्तते इति तर्हि साक्षात् एकत्वं रूपे नास्ति खलु किन्तु एकत्वं कुत्र अस्ति घटे अस्ति घटे रूपमपि अस्ति रूपं समवायसम्बन्धेन घटे वर्तते एकत्वं समवायसम्बन्धेन घटे वर्तते वयम् इतः रूपं तावत्पर्यन्तं गन्तुम् इच्छामः एकत्वं रूपे वर्तते इति वक्तुम् इच्छामः किन्तु सम्बन्धः कः इति वक्तव्यं भवति तर्हि तत्र यदि तत्र सङ्गणके एव यदि तत्र अन्यत् पुटं गच्छामि चिन्ता मास्तु खलु अथवा तत्र पुस्तके सर्वे पश्यन्ति वा किं कुर्मः
किं किं द्रष्टव्यं महोदय
हा तत्र पूर्वं भगिनि वयं कथ न प्राशवर्ग पुटसङ्ख्या अस्ति पञ्चाशीतिः अधोभागे अहं तत्र चित्ररूपेण तत् लिखामि अत्र किन्तु प्रायशः तत्र एकनिमिषः चित्ररूपे लिखामि तत्र गन्धः इति स्वीकुर्मः गन्धः पुष्पं जलं
समवायसम्बन्धेन अस्ति आम् अस्तु जलम् अस्तु आम्
तत्र अस्मिन् सन्दर्भे वयं तत्र गन्धः साक्षात् जले वर्तते वा
न परम्परासम्बन्धेन अस्ति इति
परम्परासम्बन्धेन वर्तते तर्हि वयं किं कृतवन्तः वयम् उक्तवन्तः तत्र गन्धः अत्र संयोगसम्बन्धः अस्ति इति कृत्वा संयुक्तत्वसम्बन्धेन जले
जले अस्ति इति
जले अस्ति इति उक्तवन्तः गन्धः स्वसमवायी संयुक्तत्वसम्बन्धेन जले अस्ति इति उक्तवन्तः तथैव अत्रापि वयं कर्तुम् इच्छामः एकत्वं स्वसमवायी इति यदि वदामः घटः पर्यन्तम् आगच्छामः यथा गन्धः स्वसमवायी इत्युक्ते पुष्पम् इति तावत्पर्यन्तम् आगच्छामः अत्र सम्बन्धः अस्ति संयोगः किन्तु अत्र अस्ति समवायः अपि तत्र संयोगः तत्र एकस्मिन् स्थले अस्ति पुष्पं वा जलं वा तत्र जलं पुष्पं जले जलं संयोगसम्बन्धेन पुष्पे वर्तते पुष्पं च संयोगसम्बन्धेन जले वर्तते इति किन्तु अत्र किञ्चित् भिन्नमस्ति नाम रूपम् एव समवायसम्बन्धेन घटे भवति घटः समवायसम्बन्धेन रूपे नास्ति खलु अतः किं कश्चन भेदः वर्तते अस्मिन् उदाहरणे अपि अस्मिन् सन्दर्भे तयोः मध्ये अतः उपरि गमनार्थम् अधोगमनार्थं वयं किं वदामः समवायी इति तत्र गन्धः गन्धस्य समवायी अस्ति पुष्पम् अतः स्वसमवायी इत्युक्ते गन्धस्य समवायी पुष्पम् उपरि गमनार्थं वयं किं वदामः समवेतम् इति पदम् अधोगमनार्थं समवायी अधोगमनं समवेतम् इत्युक्ते उपरि गमनम् तर्हि अत्र किं भवति एकत्वं स्वसमवायी समवेतत्वसम्बन्धेन रूपे वर्तते इति एकत्वं स्वसमवायी समवेतत्वसम्बन्धेन रूपे वर्तते अतः तत्र समवायी इति घटितमस्ति खलु
आं महोदय
हा अतः एव तत्र समवाय घटितम् इति स्पष्टं सामानाधिकरण्यं समवायं घटितम् इति स्पष्टम् अपि तत्र समवायेन अत्र तत्र एकत्वं
सम्बन्धः
स्वसमवायि समवेतत्वसम्बन्धेन रूपे वर्तते इति तस्य एकत्वं कथमस्ति परम्परासम्बन्धेन रूपे वर्तते सः परम्परासम्बन्धः कः इत्युक्ते स्वसमवायि समवेतत्वसम्बन्धेन रूपे वर्तते एकत्वम् अग्रे भगिनि
बहुदिनात् प्राक् अस्माभिः पठितं यत् घटः रूपे अस्ति इति यतोहि यदि घटः नश्यते रूपः न तिष्ठति इति कृत्वा तत्र किमपि सम्बन्धः अस्ति इति अस्माभिः उक्तं महोदय तद् न स्मरामि किम् इति
तद् तद् अग्रे एतदेव भवति इति मन्ये भगिनि नाम तत्र
घटः रूपस्य कारणमिति
आमामां नाम तत्र नाम तत्र घटः रूपस्य कारणम् अतः तत्र किं भवति यदा घटस्य निर्माणं भवति तस्मिन् क्षणे निर्रूपं तत्र रूपं गुणं
रूपं नास्ति निर्गुणनिष्ठं
नास्ति नास्ति हा निर्गुणं भवति निर्गुणः भवति घटः विना रूपं भवति यतोहि रूपं प्रति कारणं घटः अस्ति अपि तत्र अस्माकं तत्र निकषत्रयम् अस्ति कार्यकारणभावः तयोः तत्र नाम कार्यस्य उत्पत्तेः पूर्वस्मिन् क्षणे कारणं भवेत् इति अतः एकं क्षणं घटः घटस्य उत्पत्तिः भवति तस्मिन् क्षणे
रूपं नास्ति
रूपस्य उत्पत्तिः न भवति अग्रिमे क्षणे भवति तस्य उत्पत्तिः इति तत्र न्यायशास्त्रे भवति अतः एव तत्र उपशीर्षिकः अत्र अस्ति खलु उत्पत्तिक्षणे द्रव्ये न
गुणकर्मण अस्तु
मनोः सम्भवः इति तदेव अग्रे भवति अपि अतः उत्तमप्रश्नः
अतः तयोः सामानाधिकरण्यं समवायघटितमिति स्पष्टम् एवं च घटे समवायेन विद्यमानम् एकत्वं सामानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्यापि निर्वाहः शक्यः कर्तुम् इति दिक्
नाम तत्र प्राचीनानां मते तत्र गुणः गुणिनः भवितुम् अर्हति इति प्राचीनानां मतं नाम तत्र एकः गुणः अन्यस्मिन् न भवितुम् अर्हति इति यत् वयं पठितवन्तः तत् प्राचीनानां मतं नवीनानां मते तत्र गुणः गुणी भवितुम् अर्हति इति तेषां चिन्तनम् अतः तत्र यदि तत् स्वीकुर्मः सुलभः अस्ति किन्तु तद् यदि न स्वीकुर्मश्चेदपि वयं सम्बन्धः एतादृशसम्बन्धेन कल्पयितुं शक्नुमः अतः तस्य रूपे प्रतीयते एकत्वम् इति सामानादिकरण्य रूपे प्रतीयते इति तादृशज्ञानस्य अपि निर्वाहः तादृशज्ञानं समीचीनम् अस्ति इति तस्य निर्वहणं कर्तुं शक्नुमः इति अलम् अतः तत्र एतावत् तत्र सङ्ख्या एतत् सर्वं तत्र समवायिकारणम् एतत् सर्वम् एतस्य उदाहरणं तत्र स्पष्टीकरणार्थम् उक्तं नाम एकत्वं रूपे कथं न भवितुम् अर्हति नाम रूपम् एकत्वस्य समवायिकारणं नास्ति यतोहि समवायिकारणं सर्वदा गुणस्य समवायिकारणं सर्वदा द्रव्यं भवति इति इति तावदेव अस्मिन् विषये अस्तु भगिनि अस्तु तत्र अस्मिन् विषये कोऽपि प्रश्नः अस्तु तर्हि अग्रे गच्छामः धन्यवादः भगिनि धन्यवादः अस्तु इदानीम् अग्रे योगेन्द्रमहोदय इदानीं गुणनिरूपणे
गुणनिरूपणे क्रमप्राप्तां सङ्ख्यां निरूपयति एकत्वादिव्यवहारहेतुः सङ्ख्या सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता इति सङ्ख्यायाः प्रभूतिविभागान्ताः गुणाः नौसु अपि द्रव्यस्यु वर्तन्ते तथा हि द्वित्वादीनां वक्ष्यमाणरीत्या कदाचित् एकत्वे अपि
कदाचित्कत्वे
अपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति एकः घटः एकः आकाशः इत्यादिज्ञानैः तत्सिद्धिः परिमाणम् अपि तथा तस्य अणु महत् आदिविभागः ग्रन्थकारेण प्रदर्श्यते सङ्ख्यावत् एव पृथक्त्वं पृथक्त्वम् एकपृथक्त्वं द्विपृथक्त्वम् इति एवं विधं भवति तत्र द्विपृथक्त्वादीनां कादाचिकत्वे अपि एकपृथक्त्वं सर्वेषु द्रव्येषु सर्वेषु द्रव्येषु भवति
अस्तु इदानीं तत्र क्रमप्राप्तां सङ्ख्यां निरूपयति तत्र गुणानाम् आवलिः तत्र महोदय तत्र गुणानाम् आवलिः कुत्र अस्ति आरम्भे वयं पठितवन्तः तत्र किं
प्रायः अष्टमे
अष्टमेपुटे वा अस्तु अस्तु महोदय एकनिमिषः पश्यामि
प्रायः
महोदय समीचीनं तत्र अष्टमे न किन्तु समीपमेव सप्तमे पुटे एकवारं पठतु महोदय तत्र रूपस्य आवलिः
रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्व अपरत्व गुरुत्व द्रव्य द्रवत्व स्नेह शब्दबुद्धि सुख दुःख इच्छा द्वेष प्रयत्नः धर्म अधर्म संस्कारः इति चतुर्विंशतिगुणाः
अतः क्रमेण वयं रूपस्य लक्षणं पठितवन्तः तदनन्तरं रसस्य तदनन्तरं गन्धस्य स्पर्शस्य च इदानीं क्रमेण किं भवति इदानीम् अग्रे
सङ्ख्यायाः
तदनन्तरं परिमाणं
तदनन्तरं पृथक्त्वं
विभागः इति भवति सः क्रमः अतः अग्रे अग्रिमगुणः भवेत् सङ्ख्या अतः एव सङ्ख्यायाः निरूपणम् अग्रे भवति लक्षणवाक्यं सर्वं दत्तमस्ति अस्तु तर्हि समयोऽपि जातः किन्तु अग्रिमे वर्गे तत्र सङ्ख्यायाः लक्षणवाक्यं पठित्वा तस्य विवरणं कृत्वा तदनन्तरं तत्र परिमाणम् इति तस्य तत्र तस्य परिमाणस्य अपि तत्र का स्थितिः इति उक्त्वा तदनन्तरं संयोगः विभागः एतत् सर्वम् अग्रे आगच्छति अस्तु तर्हि बहु समीचीनम् अस्ति तत्र अद्य तत्र समवायिकारणस्य लक्षणं वाक्यं सम्यक् रीत्या अवगतवन्तः अपि तत्र एकत्वम् इति तत्र केन सम्बन्धेन तत्र रूपे वर्तते नाम स्वसमवायि समवेतत्वसम्बन्धेन एकत्वं रूपे वर्तते इति भवति अतः तस्य अपि पुनस्मरणम् अग्रिमे वर्गे कुर्मः तर्हि अस्तु धन्यवादः नमस्कारः अग्रिमे वर्गे मिलामः तर्हि नमस्कारः